नमः। नमस्ते। आदौ गतसप्ताहे पाठितेषु विषयेषु प्रश्नाः सन्ति चेत् पृच्छन्तु अथवा अग्रे सरेम। प्रश्नाः सन्ति वा कस्यापि?
प्रश्नः नास्ति, मम प्रश्नः नास्ति।
भवान् तु चतुरः इत्यस्मात् अस्तु। अहं स्क्रीन् शेर् करोमि, दृश्यते वा मम स्क्रीन् अधुना?
दृश्यति।
उत्तमं, तर्हि आदौ
एकः प्रश्नः अस्ति।
कस्य?
नन्दिनी।
सत्यम्, उच्यताम्।
यु सेड् दृश्यते, हौ इस् वाट् इस् दृश्यते, हौ इस् डिफरेंट फ्रॉम दृश्यति और दृश्यतु?
दृश्यते मीन्स् इज इट बीइंग विजिबल इति अर्थः।
इज इट विजिबल?
इज इट विजिबल स्क्रीन? रविमहोदय
जी,
पठ कृपया।
एकः बालकः, एक बालिका च अत्र तिष्ठतः। अस्य नाम रामः, अस्य नाम शकुन्तला। अस्याः नाम शकुन्तला। तौ पाठलयतु आगच्छतम्। इयं बालिका अस्य बालकस्य अग्रज। इमे किं कवितुः
कुरुतः?
कवितः इमे सल्पतः।
सल्लपतः?
सल्लपतः।
एकनिमिषं, तत्र तौ पाठालयात् आगच्छताम्। तौ पाठालयात् आगच्छताम्। कौ? बालिका, बालकः, उभौ अपि पाठालयात् आगच्छताम्। इयं बालिका अस्य बालकस्य अग्रज। अस्य नाम कस्य? अस्य रामस्य। अस्य रामस्य अग्रजा अस्ति इयं बालिका। इमे, क्षम्यताम्, अत्र इमौ भवति। इमौ किं कुरुतः? इमौ किं कुरुतः इति भवति। एकनिमिषम्, इमौ किं कुरुतः? इमौ संलपतः। संलपतः नाम तयोः सम्भाषणं प्रचति, कान्वर्सिङ्ग् इति अर्थः। संलपति,
सॉरी, से इट अगेन, व्हाट इज संलपति?
कान्वर्स। संलपति, ओके।
देयर इज अ इम साउंड, इज इट देयर?
यस, संलपतः। यस, संलपतः,
ओके।
इट्स अ नेजल साउंड। सत्यं, स्पष्टं वा एतावत्? अत्र प्रश्नाः न सन्ति इति मन्ये। पल्लि भगिनी, अनन्तरं कृपया।
सारी, वन् क्वशन्, सारि, एकः प्रश्नः। इमौ किं कुरुतः? इमौ सल्लपतः मीन्स् आर् दे डूयिङ्ग् एनिथिङ्ग्? दे आर् टाकिङ्ग्, इस् इट्? ऐ डिड्न्ट् अण्डर्स्टाण्ड् द लास्ट्।
सत्यं 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 सत्यं, तावदेव। वाट् आर् दे डूयिङ्ग्? वाट् आर् दीस् टु डूयिङ्ग् इति अर्थः। इमौ सल्लपतः।
ओके, फैन्, ओके।
प्रश्नः कस्य?
अत्र इमे उपयुज्यते वा इमौ उपयुज्यते वा?
इमौ एव, किमर्थं नाम पुरुषः, पुरुषः अपि अस्ति किल अत्र। इमे नाम स्त्रीलिङ्गे एव भवति, इमौ पुरुषः नाम तत्र किं भवति? अयम्, इमौ, इमे किल। एकः पुरुषः अस्ति, एकः महिला अस्ति।
अत्र बालिका, बालकः द्वे अपि अस्ति चेत्
तथापि
तस्य आधारेण इमौ या इमौ इमे उपयुज्यते इति मम।
नाम एकः अपि पुरुषः अस्ति चेत् पुल्लिङ्गप्रयोगः एव भवति।
अस्तु महोदय,
बाय्स् रोल् अन्फार्चुनेट्लि। इमौ कुरुतः,
डिफरेन्स् है क्या?
सत्यम् अस्ति।
इस् देयर एनी डिफरेन्स् इन् तस्य एण्ड् अस्य?
अस्य नाम एतस्य, तस्य नाम दट्, अस्य नाम दिस् इति अर्थः। asya is equal to etasya.
Oh,
okay. Parshve asti tavadeva. Tasya nama dure asti tavadeva. Saha tasya. Ayam asya. Athava eshaha etasya. Spashtam?
Imau kim kurutaha is a question, isn't it?
Satyam.
Okay.
Asto.
So in this case, balakasya is also used for comparison, is it? Than the boy, is it?
Na that boy chasmin arthe bhavati. Udaharanaya, asya balakasya nama, athava asya purushasya nama, natarajaha. Tasya purushasya nama, ravihi.
Yeah, yeah. Asya, I got it. I'm sorry, asking about the next one. The balakasya agraja. So she is elder than the boy. That's what the meaning
is. No.
She is his elder sister. It's not comparing there. Whose elder sister?
Oh.
His.
Okay. Fine. Balakasya agraja. Oh, okay. Meaning elder. Okay, fine.
First one?
Okay, and it is agraja because it's we are talking about Srilinga.
Satyam.
Otherwise, it's other way around, it should have been agrajaha.
Satyam.
Spashtam.
So, Mahara, I have a question here. Sallapataha. So, that is the bindu there. And so, how would we pronounce it?
Sallapati.
So usually the lakara doesn't have ending nasal sound. Therefore, it should be the in, right? Like a hum.
Avagatam. Prashnaha avagataha. Atra kimasti lakarasya api anunasika chinham atra avashyakam. Mama keyboard madhye lakarasya anunasika chinham nasti. Ichyasmat atra bindu sthapitam. Actually, kim atatra vastavikataya kim bhavati? Sallapati lakarasya api, so on top of lakaraha you'll have the chandrabindu symbol. I don't have that on my keyboard, that is why I couldn't. So it should be sallapati. It is lakara with anunasika chinha. So katham bhavati, so it should be something like this. I don't have that sign in my...
Yeah, I understand. For the om, we put that...
Yes.
Crescendo.
Yes.
Huh.
Something like that it should be.
Okay.
So is that word, sallapattaha, is that the verb? Like, are they in a conversation? They're conversing?
Satyam, am. Satyam. Sallapati.
Oh, thank you. So it should be ti, not taha, sallapataha.
Ekavachane sallapati. Atra dvivachanam asti kila, sallapataha, tavadeva. Khadati, khadataha, khadanti, evam ritya.
Okay.
Mama kramaha va mahoya.
Patatu.
Ayam balakaha adhya patam na apatat. Ataha adhya adhyapakaha tam athadayat tam vartam shrutva asya agraja pitre akathayat pitra putram adarjayat tasmat putrah kupitah ayam balakah agrajam anindayat.
Atra prashnah bhavati eva sarvesham api janami idam atra pitre astu pitru iti pratipadikam. Pitru iti pratipatikam rukaranta padamasti chaturthi vibhakti ekavachanam pitre bhavati astu atam vartam balakaha hyaha patham na apathat ataha kim jatam adhyapakaha tam atadayat tadayati atadayat adhyapakaha tam namakam balakam atadayat ताम वार्ताम सा वार्ता अस्ति ताम वार्ताम तत्र द्वितीया विभक्ति अस्ति सा ताम वार्ता वार्ताम ताम वार्ताम श्रुत्वा अस्य अग्रजा कस्य अग्रजा बालकस्य अग्रजा पित्रे अकथयत कथयति नाम टेल इति अर्थः कथयति इट इज नॉट स्पीक कथयति इज टू से और टेल ओके अग्रजा पित्रे अकथयत अस्तु यत्र कथयति इति क्रियापदम अस्ति तत्र सामान्यतया चतुर्थी विभक्ति भवतु इति क्वचित् दृष्टम् अस्तु केचन अत्र पितरं द्वितीय विभक्ति उपयुज्य वाक्यं वदन्ति केचन चतुर्थी विभक्ति उपयुज्य वाक्यं वदन्ति उभयतापि प्रायः नाम तत्र उभौ अपि युक्तमेव स्यात् तत् न जाने किन्तु अधिकतया मया तु एतावत् चतुर्थी विभक्ति एव दृष्टा अस्ति इत्यस्मात् चतुर्थी विभक्ति एव लिखितमस्ति अत्र ओके फ्यू से वी कैन यूज द्वितीय हियर वेन वी यूज कथयति फ्यू से वी कैन यूज द्वितीय विभक्ति हियर फ्यू से नो इट हैज टू बी चतुर्थी ओके आई एम पर्सनली इंक्लाइन टू थिंक इट शुड बी चतुर्थी सो आई पुट चतुर्थी हियर ओके पित्रे अकथयत ओके पिता पुत्रं अतर्जयत किमर्थं वार्तां श्रुत्वा ह्यः बालकः पाठं न अपठत् इत्यस्मात् तां वार्तां श्रुत्वा पिता पुत्रम् अतर्जयत् तस्मात् तस्मात् नाम देयर्फोर् इति अर्थः तस्मात् बिकास् आफ् दट् तस्मात् पुत्रः कुपितः पुत्रः अपि कुपितः किमर्थं पिता पुत्रम् अतर्जयत् तर्जयति अतर्जयत् अतः पुत्रः अपि कुपितः अस्ति अयं बालकः अग्रजाम् अनिन्दयत् निन्दति अनिन्दयत् अनिन्दयत् यस् अनिन्दयत् स्पष्टम् एतावत्
सोरि ऐ एम् स्टिल् ट्रैङ्ग् टु अण्डर्स्टाण्ड् द मीनिङ्ग् हियर् सो वाट् इस् कुपितः मीन्
कोपि कुपितः पदशब्दः
एङ्ग्रि
सत्यं तावदेव
एङ्ग्रि
ओके बिकास् आफ् दट् द सन् वास् एङ्ग्रि अग्रजाम् अनिन्दयत् ओके अयं बालकः अग्रजाम् ओके सो हि स्कोल्डेड् हिस् सिस्टर् इस् आर् हि दट्स् वाट् द लास्ट् सेण्टेन्स् मीन्स्
सत्यं
ओके सो शी वास् अ टाटल्टेल् एण्ड् देन् हि इस् अप्सेट् विथ् हर् बिकास् दट् वास् अप्सेट्
अनिन्दत् किल अयं बालकः अग्रजाम् अनिन्दत् स्पष्टम् एतावत्
Shekhaji, Akayat means he told, right? And then Atadayat means he said?
Atadayat is
beating. Scold or,
Scold.
No, Tarjayat nama scold. Tadayat nama hitteva, Sakshat. Spashtam, va?
Spashtam.
Yes.
Shankar Mahode?
Yeah, Spashtam.
पठतु कृपया
रामः रामः
न न नाट् रामः राम
राम सारी राम अपि त्वं ह्व रैट् ह्व
ह्यः ह्यः
ह्यः राम अपि त्वं ह्यः प्रातः मित्रस्य गृहं गच्छः गृहमगच्छः आर्य अहं नागच्छं मित्रस्य गृहम् अगत्वा त्वं तव गृहे किं करोः
किम् अकरोः
अहं ह्यः पित्रा सह विपणिम् अगच्छम्
अत्र पश्यन्तु अत्र राम सम्बोधने अस्ति इदं प्रायः स्पष्टं स्यात् राम अपि त्वम् अस्तु राम अपि त्वं ह्यः प्रातः मित्रस्य गृहं अगच्छः प्रश्नः सा यत्र अपि इति पदेन वाक्यम् आरभ्यते सामान्यतया प्रश्नवाचकं भवति अपि त्वम् अपि इफ् इट् इस् द बिगिनिङ्ग् आफ् द सेण्टेन्स् यूजुअली इट्स् अ क्वश्चन् अपि त्वं ह्यः प्रातः मित्रस्य गृहम् अगच्छः प्रश्नः
Here it does not mean also, is it? You also went to...
Api Tvam. When it starts with Api, it's a question sentence.
Okay.
It's a question, okay?
So the Api doesn't have any meaning out there?
It's saying that, you know, it's a question. That's it, really.
Okay. So it's we have to understand from Tvam. Tvam, Kyaha, from there.
Satyam.
Okay.
So, Shekumar, there, even if you don't give that question mark, that makes a valid sentence? Because
yes.
You're putting api? Yeah.
Yes. Okay. I put question mark so that, you know, you'll understand.
You understand, right? Yeah, okay. Yeah. That makes sense now, yeah.
Okay. Api tvam hyaha prataha mitrasya gruham agachaha? Iti prashnaha. Pashyatu atra prataha iti abhyayam asti. Samanyataya kada iti prashnam krute tatra kimbati kada iti prashnam krute tatra saptami vibhakti bhavati. किल सोमवासरे मित्रस्य गृहम् अगच्छः एवं रीत्या प्रातः इति अव्ययमस्ति इत्यस्मात् तत्र विभक्ति परिवर्तनं भवति नाम विभक्ति एव न भवति अव्ययमस्ति अतः अस्तु ह्यः प्रातः मित्रस्य गृहम् अगच्छः इति प्रश्नः रामः किं वदति आर्या आर्या नाम महोदया आर्या अहं न अगच्छं नागच्छम् अहं नागच्छं मित्रस्य गृहम् अगत्वा मित्रस्य गृहम् अगत्वा त्वं तव गृहे किम् अकरोः उदाहरणाय अहं विद्यालयं गत्वा पठामि अहं विद्यालयम् अगत्वा गृहे निद्रामि अवगतं वा गत्वा अगत्वा
Mahadeya, you said Gatva and all is Abhyayam. So why Agatva?
Agatva nama kahartaha?
Just
went. Gatva. After going or went?
No, Agatva. Gatva nama kahartaha?
We are using
coming back.
No. Ruham Gatva, Vidyalayam Gatva Pathami. Vidyalayam Agatva.
Reach
from Vidyalaya.
No. I didn't go to the Vidyalaya.
After having gone to the school?
No, after not going. I didn't even go to the school.
Without going to school,
without
something
going
like that.
To school.
Instead of
going to the school.
Oh, okay.
Gruham agatva, Vidyalayam agatva, evam ritya. Gatva agatva. If you add an akara to that, it negates it.
Okay, so this is tricky because for past tense also we add an R, right?
You have to think. Gacchati, agacchat, gatva, agatva.
Okay.
In abhyayam asti kila, you should be able to
easily. Okay.
But this is an.
If it was past tense, it would have been like a.
Agacchat,
not a va, right?
Agatva. Yes, satyam. अस्तु किं वदन् अस्मि अस्तु अहं नागच्छं मित्रस्य गृहम् अगत्वा त्वं तव गृहे किम् अकरोः इति प्रश्नः रामः किं वदति अहं ह्यः पित्रा सह वित् मै डाड् पित्रा सह विपणिः विपणिं दृष्टं किल इदं पूर्वं पदं विपणिः नाम मार्केट्
द्वितीया विभक्ति आफ् विपणिः
सत्यं विपणिः पदस्य द्वितीया विभक्तिः विपणि इति इकारान्त स्त्रीलिङ्गपदं तस्य द्वितीया विभक्ति विपणिम् अगच्छम् मित्रस्य गृहम् अगत्वा पित्रा सह विपणिम् अगच्छम् इति वाक्यम्
So, Mahadeya, Kim
akaroha akarot padasya what is the
अर्थः कः न प्रश्नः कः अर्थः अकरोः इति पदस्य अर्थः कः वा हा वदतु कोऽपि अकरोः इति पदस्य कः अर्थः
व्हाट डिड यू डू
करोति इज देयर
सत्यम
हाउ विल करोति बिकम करोह
न न न न न न
अकरो
अकरोत् अकुरुताम् अकुर्वन् अकरोः त्वम् अकरोः युवाम् अकुरुतम् यूयम् अकुरुत सः अकरोत् तौ अकुरुताम् ते अकुर्वन् त्वम् अकरोः त्वम् अकरोः त्वं करोषि त्वम् अकरोः अधुना स्पष्टं वा उत्तमम् स्पष्टं किल
स्पष्टम्
अस्तु इदानीम् अत्र कानिचन वाक्यानि प्रदत्तानि सन्ति वाक्यं प्रायः अत्र एकवचने स्यात् युधिष्ठिरः इत्यस्य पदस्य इति किमिति नाम्नः तत्र बहुवचनं भवितुं नार्हति तत्र तस्मिन् स्थाने सः इति भवतु तावदेव अथवा स युधिष्ठिरः एव भवतु चिन्ता नास्ति अस्तु अत्र एकवचने अस्ति अस्तु द्विवचन तथैव किमिति बहुवचनवाक्यानि वक्तव्यानि भवन्ति युधिष्ठिरः नगरम् अगच्छत् इति वाक्यं युधिष्ठिरः नगरम् अगच्छत् अस्तु अस्य वाक्यस्य द्विवचनवाक्यं किं स्यात् द्विवचने अयम् इदं वाक्यं कोऽपि वदतु अगच्छताम् युधिष्ठिरौ नगरम् अगच्छताम् वण्डर्फुल् तौ सर्व क्षम्यतां तत्र बहुवचने
युधिष्ठिराः नगरम् अगच्छन्
युधिष्ठिराः नगरम् अगच्छन् वण्डर्फुल् अधुना रङ्गमहोदय द्वितीयं वाक्यं
तौ सर्वान् पश्यतः सः सर्वान् पश्यति
न न तत्र भूतकाले एव भवतु वाक्यं यद्यपि अत्र किमिति तत्र लट्लकारे अस्ति लङ्लकारे एव वाक्यानि वदन्ति पश्यतः सत्यं तत्र लङ्लकाररूपं वदतु तावदेव
सः सर्वान् अपश्यत्
न पदम् अस्य वाक्यस्य लङ्लकाररूपं वदतु तौ सर्वान् पश्यतः
अधुना
एकवचनं बहुवचनं वदतु
सः सर्वान् अपश्यत् ते सर्वान् पश्यन्
अपश्यन् ते सर्वान् अपश्यन्
अपश्यन्
धन्यवादः शङ्कर महोदय तृतीयं वाक्यं करोतु
सारि युधिष्ठिरः एकमपि शत्रुं न प्राप्नोति युधिष्ठिरः एकमपि शत्रुं न प्राप्नोति युधिष्ठिरः एकम् अपि शत्रुं न अप्राप्नोत्
किमर्थं तथा सत्यं किमर्थं प्राप्नोत् अस्ति
प्राप्नोत् इज़ रिसीविंग् राइट्
सत्यं तेन किमुक्तं तत्र शङ्करमहोदयेन किमुक्तं तत्र अप्राप्नोत् इति उक्तम् अप्राप्नोत् इति अशुद्धं रूपं
या करेक्ट् इट्स् जस्ट् प्राप्नोत् दट्स् इट्
किमर्थं प्राप्नोत् एव अस्ति
बिकास् द प्रा इस् अ अनुसर्ग
अनुसर्ग न उपसर्ग
sorry sorry yeah I keep saying upasarga okay so it's apnot is the word so a plus a is again a only so it wonderful. becomes prapnot
wonderful satyam yudhishthirah ekamapi shatrum na prapnot
prapnot okay
dvivachane kim syat
yudhishthirau ekamapi shatrum na prapnatam prapnatam
prapnutam prapnutam
prapnutam प्राप्नुताम् युधिष्ठिराः एकम् अपि शत्रुं न प्राप्नथन्
न प्राप्
न प्राप्नन् प्राप्नन् सोरि
प्राप्नुवन्
प्राप्नुवन्
प्राप्नुवन् प्राप्नुवन्
एकमपि what does the sentence mean he doesn't spare any enemies or
No, he didn't even get an enemy. He has no enemy.
He receives no, meaning, okay, he has no enemies.
Satyam. Okay. Anantram. Bhava neva karoto, Anantram natatan mahate.
Sa karma phalam na icchati. Sa karma phalam na I chat.
Wonderful. Satyam.
Oh, correct. Fine. I was only making a guess. Okay. Then next is Te Karma Palam Na I chatam.
I chatam.
Okay. Taha Karma Palam Na
इच्छति किल ऐच्छन् एव धन्यवादः पद्मजा भगिनि
यूयं दक्षिणामूर्ति स्तोत्रम् अगायत्
न अगायत् यूयम्
यूयम् ऐ डोण्ट् रिमेम्बर् ऐ ट्रैड्
अगायत अगायः अगायतम् अगायत
ओके सो यूयं दक्षिणामूर्तिं स्तोत्रम् अगायत
अगायत तर्हि त्वं दक्षिणामूर्तिस्तोत्रम् अगायः त्वं दक्षिणामूर्तिस्तोत्रम् अगायः अस्तु युवां
ओके
दक्षिणामूर्तिस्तोत्रम्
अगायतम्
आम् सत्यम् आमाम् अगायतं सत्यम् अस्तु अनन्तरं वल्ली भगिनि अनन्तरम्
आवां सर्वदा सत्यं वदावः अहं सर्वदा सत्यम् अवदन्
अहं सर्वदा सत्यम्
अवदम्
अवदम् आवां सर्वदा सत्यम्
आवां सर्वदा सत्यम् अवदाव वयं सर्वदा सत्यम् अवदाम
धन्यवादः नन्दिनी भगिनि
रामः गीता प्रदर्शनी
अपश्यत्
श्यामः गीता प्रदर्शिनीम्
अपश्यत्
अपश्यत् अनन्तरं श्यामौ
श्यामौ गीता प्रदर्शिनी पश्यत् अपश्यताम्
अपश्यताम्
श्यामः गीता प्रदर्शिनीम् अपश्यन्
अपश्यन् वंडरफुल् उत्तमम्
सुभाष द सेकंड वर्ड गीता प्रियदर्शिनी इज इट अ नाउन इज इट
हां निश्चयेन सत्यं गीता प्रदर्शिनीम् ना ना
प्रदर्शिनी या दैट प्रदर्शिनी ओके गॉट इट ओके
प्रदर्शिनी इट्स नॉट अ नेम व्हाट इज प्रदर्शिनी
मूवी
नॉट अ मूवी इट्स अ शो
इट्स अ शो
Oh, it's a music show, something like that, is it?
Not Gita. It's an exhibition. Iva chintayetu bo.
Oh, Gita Priyadarshini is a single word. Gita, I should not look at Gita as a song, music.
No.
Okay, it's a single word. Gita Priyadarshini.
Gita Priyadarshini, namatar Bhagavad Gita Priyadarshini iti artha.
Bhagavad Gita ka exhibition.
Okay, so Priyadarshini is something like an exhibition or an event or something like that.
Satyam.
Okay.
सुभाषि भगिनी अग्रिम करोतु
अस्तु महोदय सज्जनाः नित्यकर्मानुष्ठानं कुर्वन्ति सज्जनाः नित्यकर्मानुष्ठानं अकुर्वन् सज्जनः नित्यकर्मानुष्ठानं अकरोत् सज्जनौ नित्यकर्मानुष्ठानं अकुरुताम्
Wonderful. धन्यवादः
Sorry, Sajjanah means?
Someone like you, good person.
Dhanyavada. Sajjanah is a good person. Okay.
Sajjanah, Durjanah. Tavadeva.
Oh, okay.
Okay.
What is Sandhi, Mahoda? Sajjanah, is it?
Kimiti?
Is it a Sandhi?
Aam. Sandhi asti tatra.
Sat plus
Sajjanah. Aam. सत्यं कौसल्या भगिनी अनन्तरं
श्रीकृष्णः द्रौपदीं रक्षति श्रीकृष्णः द्रौपदीम् अरक्षत् श्रीकृष्णौ द्रौपदीम् अरक्षताम् श्रीकृष्णाः द्रौपदीम् अरक्षन्
धन्यवादः पुनः रङ्गमहोदय
वयं गङ्गायां स्नात्वा आगच्छामः वयं गङ्गायां स्नात्वा आगच्छामः आगच्छाम
तावदेव
अहं गङ्गायां स्नात्वा आगच्छाम् आवां गङ्गायां स्नात्वा
आगच्छाव दट्स् करेक्ट् धन्यवादः पुनः शङ्कर महोदय
विमूढाः देवं न पूजयन्ति विमूढाः देवं न अपूजयन्त् अपूजयन् विमूढौ देवं न अपूजनयां
न न विमूढौ
देवं न ಬಹುವಚನ ರೈಟ್ ವಿಮೂಢಾಹ ಐ ಥಿಂಕ್ ಐ ಸ್ಟಾರ್ಟೆಡ್ ವಿತ್ ಏಕವಚನ ವಿಮೂಢಾಹ ಇಸ್ ಬಹುವಚನ
ಸತ್ಯಂ ವಿಮೂಢಃ ದೇವಂ ನ ಅಪೂಜಯತ್ ವಿಮೂಢಾಹ ನ ಅಪೂಜಯನ್ ವಿಮೂಢೌ ನ ಅಪೂಜಯತಾಂ
ಓಕೆ
ವಾಟ್ ಇಸ್ ವಿಮೂಢಃ ಮೀನ್ ಪುರುಷ ಪೀಪಲ್ ಆರ್
ಸತ್ಯಂ
ಮೂಢಃ ಯಾ
ಯಾ ಮೂಢಃ
ಓಕೆ
ನಾತಾವ ದೇವ ಅನಂತರ ಪಲ್ಲಿ ಭಗಿನಿ
ಈಶ್ವರಃ ಭಕ್ತಾನಾಂ ಸಮಸ್ಯಾಂ ಪರಿಹರತಿ ದಟ್ ಮೀನ್ಸ್ ಪರಿಹರತಿ ಇಸ್ ಟು ಹಿಟ್
ನೋ ಪರಿಹರತಿ ಇಸ್ ಟು ರಿಮೂವ್
ಓ ಓಕೆ
ಪರಿಹಾರಂ ಇನ್ ತಮಿಳ್ ಪರಿಹಾರಂ ಯಾ
ಓಕೆ
ರೆಮಿಡಿಯೇಟ್ ಕೈಂಡ್ ಆಫ್ ಥಿಂಗ್
ಆಮಾ ಆಮಾ ಆಮಾ
ಸಮಸ್ಯಾಂ ವಾಟ್ ಇಸ್ ಸಮಸ್ಯಾಂ ಮೀನ್ ಮಹೋದಯ
ಪ್ರಾಬ್ಲಮ್ ಪ್ರಾಬ್ಲಮ್
ಪ್ರಾಬ್ಲಮ್
ಓಕೆ ಈಶ್ವರಃ ಭಕ್ತಾನಾಂ ಸಮಸ್ಯಾಂ ಪರಿಹರತ್ ಈಶ್ವರಃ ಈಶ್ವರೌ ಭಕ್ತಾನಾಂ ಸಮಸ್ಯಾಂ ಪರಿಹರತಾಂ
ಕಿಮರ್ಥಂ ಪರ್ಯಾ ವದತಿ ಪರ್ಯ
ಓ ಸಾರಿ
ಪರ್ಯಹರತ್ ಪರ್ಯಹರತ್ ಪರ್ಯಹರತಾಂ
ಪರ್ಯಹರತಾಂ ಈಶ್ವರಃ ಭಕ್ತಾನಾಂ ಈಶ್ವರಾಃ ಭಕ್ತಾನಾಂ ಸಮಸ್ಯಾ ಪರ್ಯಹರನ್
ಪರ್ಯಹರನ್ ಧನ್ಯವಾದ ಅಸ್ತು ಅಭಿಮನ್ಯು ಇತಿ ಅಸ್ತಿ ವಾತ್ರ ಕ್ಷಮ್ಯತಾಂ ಐ ಶುಡ್ ಹ್ಯಾವ್ ನೋಟಿಸ್ ದಿಸ್ ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ದಿಸ್ ವಿಲ್ ಜಸ್ಟ್ ಗಿವ್ ಶ್ಯಾಮಃ ಕ್ಷಮ್ಯತಾಂ ಬಿಕಾಸ್ ವಿ ಹ್ಯಾವ್ನ್ ಡನ್ ಉಕಾರಾಂತ ಪದಾಸ್ ಮೈ ಬ್ಯಾಡ್ ಪದ್ಮಜಾ ಭಗಿನಿ ಪ್ರಯತ್ನ ಕರೋತು
ಶ್ಯಾಮಃ ವ್ಯೂಹಾತ್ ಬಹಿರಾಗಮನಂ ವಿಸ್ಮರತಿ ವಿಲ್ ಬಿಕಮ್ ಅವಿಸ್ಮರತ್
ನೋ 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 ವಿ 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 ಉಪಸರ್ಗ
ವಿ ಇಸ್ ಅ ಉಪಸರ್ಗ ಸೊ ವಿ ಪ್ಲಸ್ ಅಸ್ಮರತ್
ವಿ ಪ್ಲಸ್ ಆ ಕಿಂ ಭವತಿ ಇ ಪ್ಲಸ್ ಆ
ವಿ
ವ್ಯ
ವ್ಯ
So it is Shyamaha Vyuhat Bahiragamanam Visyamarat
Vyasmarat Vyasmarat Bhavati
Vyasmarat, sorry, I don't remember on that. Shyamau Vyuhat Bahiragamanam Vyasmarataha.
No.
It's the same.
Yeah, Vyasmarataam.
Vyasmarataam.
Vyasmarataam, kila.
Yeah. And then Shyamaha. I'm sorry, something is covering
that. Oh, sorry. Okay, never mind. Okay.
Shyamaha Vyuhat Bahiragamanam and the third one will become Visyamaran.
No, Vyasmaratan.
Vyasmaran.
Vyasmaran. Shyamaha Vyuhat Bahiragamanam Vyasmaran.
Vyasmaran. Sorry.
Vyasmaran.
Bahiragamanam means getting out or exiting.
Amam. ಸತ್ಯ ತದೇವ ಅದನ್ನ ನಂದಿನಿ ಭಗಿನಿ
व्यासः महाभारतं लिखति
व्यलिखत् सत्यं व्यासः महाभारतं व्यलिखत् अत्र तावदेव भवतु व्यलिखत् पदस्य द्विवचनं किं भवति व्यलिखत् द्विवचने किं स्यात्
बहुवचनं
व्यलिखन् एव उत्तमं सुभाषिणी भगिनी अनन्तरं श्रीकृष्णः
श्रीकृष्णः गीतं गीताम् उपदिश गीताम् उपदिशति श्री उपदिशति विल् बिकम् उपादिशत्
वंडरफुल
सेट राइट श्रीकृष्णः गीताम् उपादिशत् श्रीकृष्णौ गीताम् उपादिशताम् श्रीकृष्णः गीताम् उपादिशतान्
उपादिशन्
उपादिशन्
यस उपादिशन् रंगमहोदय
दुर्योधनः आचार्यम् उपगच्छति दुर्योधनः आचार्यम्
उपागच्छत्
दुर्योधनौ आचार्यम् उपागच्छताम् दुर्योधनाः आचार्यम् उपागच्छन्
उपागच्छन् रवि महोदय उपागच्छति नाम समीपं गच्छति इति अर्थः आचार्यस्य समीपं गच्छति आचार्यम् उपगच्छति रवि महोदय
yeah let me try that sevakah radam chalayati
chalayati
chalayati sevakah radam chalayat
achalayat
achalayat sorry achalayat sevakau radam achalatau
achalayatam
achalayatam chalayati so chalatau अचालतौ
अचालयत् अचालयत् अचालयताम् अचालयन्
अचालयन् सेवकः रथम् अचालयन्
सेवकाः सेवकाः रथम् अचालयन् अचाल अचाल अचालयन्
अचालयत् अचालयन् ओके
Is it clear? Spashtam asti va?
Yes, sure. Spashtam asti va.
Anantam. Kausalya bhagini? Tadasi krodhaha iti padam tatra. Tatra prayaha tata nadrishyate. Krodhaha iti padam.
Krodhaha sammohanam ajanayat.
Ajanayat. Tatra krodho bhavitum narhati. Ajanayati padase va tatra... द्विवचन तथैव बहुवचन रूपाणि वदत् तावदेव अजनयत्
अजनयत्ताम् अजनयन्
अजनयन् अजनयन् सम्मोहनं नाम तत्र कन्फ्यूज् अण्ड् पर्प्लेक्स् इति अर्थः
जनयति अर्थः
कौसल्य रामं जनयति
ओके ओके शी बोर्न
ओ ओके गॉट इट ओके
जनयति मींस आई डोंट अंडरस्टैंड
ओ ओके
या दे ब्रीड और दे गेट कंफ्यूज्ड समथिंग लाइक दैट गेट
नो कोदा विल लीड टू दिस थिंग दैट्स व्हाट इट मींस राइट
सत्यम आमाम आमाम आम
जनयति इज टू लीड
It gives, it generates or whatever, however you want to think. it leads to, it's probably the English way to say it, really. Okay. Rushayaha Indriyani Shankar Mahadaya Vadatu Rushayaha Indriyani
Rushayaha Indriyani Nigrinhanti. Ni plus I'm not sure. Ni plus a.
Okay, if V plus R becomes Vya, what does Ni plus R become?
Nya.
Nya, Tavadeva, Vadatodhma.
Okay, okay, thank you, okay. Rishayaha, Nya, okay. Nigrahanti this Nya, Nyagrinhat, Nyagrinhatam.
No, no, Atra Bahuvachane Asti Grinhanti Kada, Grinhanti Atra, Bahuvachane Asti.
Oh, it's Bahuvachane, okay. Nyagrinhatan.
Nyagrinhan.
Rishiyaha Indrani Nyagrinhan.
Rishi, ekavachane kim bhavati? Rishihi Indriyani Nyagrinhat. Nyagrinhat. Rishi, dvivachane Rishi Indriyani Nyagrihitam. Iti bhavati.
Okay.
Nyagrinhat. Nyagrihitam, grinhitam, kshamyatam. Nyagrinhat, nyagrinhitam, nyagrinhan, iti bhavati. Agrinhat, agrinhitam, agrinhan, evam.
Okay. Yep.
Astu?
Okay.
Thank you. Rangamohadaya, balakaha pushpam chinutaha.
Balakaha pushpam chinutaha. Balaha, bal, excuse me. Balaha, no. Balakaha pushpam achin achinu achinu.
Okay, shamata mata balakaha asti kila.
Yeah, balakau, right? It should have been balakau.
Balakau, shamata. Balakau.
Balakau. Pushpam achinutam.
Achinutam, wonderful.
Balakaha pushpam achinat.
Achinot.
Achinot.
Chinoti achinot.
Achinot.
Chinutaha achinutam. Chinvanti achinvan. Balakaha pushpam achinvan iti.
Achinvan. Okay. Balakaha pushpam achinvan.
Achinvan.
Chinvataha means plucking?
Satyam. Okay. Spashtam vaidam sarvam?
Yeah, need practice.
Can you please share all these sentences?
Definitely.
And hopefully answers too, so we can understand.
I have
it's very good exercise, yeah.
And on the 11, 12, I got lost on that one. Ishwaraha bhaktanam samasyam. So you didn't put any A before it, right? Pari.
Kutra? Ishwaraha bhaktanam samasyam.
Pariharati. So I thought we did not put A in front of it, isn't it?
No, King Bhavatyatra Pariharati. Okay. Pari plus Harati.
Okay. Oh, Harati. Okay.
Pari plus A Harat. Pariya Harat. It is not apaharit. No, it is not apariharati. No.
Okay, okay. So pariyaharata. I did not pay attention in the middle sound. Okay, I see. Okay.
Pariyaharata.
Pariyaharata. Okay, dhanyavada.
Sorry. Ekaha vinnapaha. Kanichana dhatu dhatoho dhatavaha upasargena saha preshai. Preshe tum I request you to send some verbs with upasarga so that we can add this and then practice.
There's a lot actually in that sheet. Okay, I can send you more. That's fine. Yeah, I'll send you more. That's fine. No problem. Idam first time, Kila?
Actually, the Ichchati and all, it was hard. Natarajan Mahodaya was very good to do it.
Saha Chaturaha Atahaeva. He's smart. Astu Bhavato. Aham share karobhi punaha ekrimsham.
One general question, Shekhar Mahodaya. In English, we have this mine and for me, right? So mine, we say mama. For me, also like meaning, can you give me some water? So mahyam. There also we use mama or?
No, mahyam, chaturthi avashyam tatra, pashyama, anantara.
Okay.
Patato, Valli Bhagini? Aramam Guru Kripaya.
Kinshit
Itopi Karnayama.
How to say big how do I say big Mahodaya?
Bruhat.
Bruhat Karotu. Okay. Balakaha Hastaha. Balakaha Hastena Likhati. Chitrakaraha Kurchaha Chitrakaraha Kurchena Chitram Nirmite
Nirmati.
Nirmati. Vridha Dandaha. Vridha Dandena Kukuram Tadenti. Balakaha Chamasaha. Vakaha Chamasena Khadati.
Spashtam va atra etavata pashyatu. Hastaha Hastena. Balakaha Hastena Likhati. Kurchaha Kurchena. Chitrakaraha Kurchena. Chitram Nirmati. Dandaha Dandena. Dandena Kukuram Tadayati ka Uddha. Chamasaha Chamasena. Balakaha Chamasena Khadati. Akaranta Pumlinga Padani Imani Sarvani Api. Tatra Trutiya Vibhakti Ekavachane. Chamasaha Chamasena. Dandaha Dandena. Kurchaha Kurchena. Evam Richa Rupani Bhavanti. Syutaha Syutena. Ramaha Ramena. Krishnaha Krishnena. Evam Richa Rupani.
Eka Prashna. Dandena Alpa Prana na
Alpa Mahaprana Navaktavyam. Danta Nakaraha. Danta Nakaraha Murdhanya Nakaraha iti Vaktavyam. Idam Danta Nakaraha. Murdhanya Nakaraha.
Right.
So Ru plus no nama ru plus nama tatra repat param nakaraha asti chet nakaraha athava kimiti shakarat param nakarahasya nakaraha tavadeva.
Okay, because in the exercise in the earlier PDF that you shared, it was katarena, so that's what I was okay.
Atra
so, sha and ra na
na satyam. Sha kemam bhavati sha or ra, what if there's some other letter in between, and then there are rules. Okay. We'll get to that later, but for now just think after sha and ra you get na, that's it.
Okay.
It has to be re, right Mahodaya? It cannot just be ra.
Rakaraha, yeah, you can, yeah. Ru plus any other thing. Yeah, ru plus a or ru plus or something. Ru plus samsvara, that's it.
Ru, not ra.
Ru, repaha. Ra, repaha.
So sometimes this ra has a nakara, talavya nakara next to it too, right?
Yes, we'll get to that later.
Okay.
This is, let's just, you know, stick to this one.
Okay, astu
maha. Astu. Vyadha banaha. Ranga mohade?
Okay, ask me. Vyadha banaha. Vyadaha bhanena praharati.
Praharati,
Praharati. Want me to go next one?
Yeah, patato.
Okay. Arakshakaha dandaha. Arakshaha dandena choram tadayati.
Arakshakaha dandena choram tadayati.
Vruddaha upanetram. वृद्धः उपनेत्रेण पश्यति
तत्र एतावत् स्पष्टं स्यात् अत्र दण्डः बाणः एतावत् पर्यन्तम् अत्र सर्वाणि अपि पुंलिङ्गपदानि आसन् किन्तु अत्र उपनेत्रं नपुंसकलिङ्गपदमस्ति दण्डः पुंलिङ्गपदं दण्डेन इति रूपं तृतीयाभक्ति एकवचने उपनेत्रं नपुंसकलिङ्गपदम् उपनेत्रेण अत्र पश्यतु दण्डः दण्डेन उपनेत्रम् उपनेत्रेण रूपं तु समानम् अस्तु हलं हलेन पठतु कृपया कृषकः
हलं कृषकः हलेन कर्षति
कृषकः हलेन कर्षति एतावता अकारान्त नपुंसकलिङ्गपदानि अकारान्त पुंलिङ्गपदानि दृष्टानि अधुना आकारान्त स्त्रीलिङ्गपदानि आकारान्त अस्तु शंकर महोदय
अस्तु महोदय बालकः द्विचक्रिका बालकः द्विचक्रिकया गच्छति
सो द फर्स्ट सेक्शन सॉरी सॉरी द फर्स्ट सेक्शन वाज थर्ड विभक्ति राइट
तावदेव अत्रापि तृतीयाभक्ति एव किन्तु स्त्रीलिङ्गपदानां तावदेव अग्रे
आपणिकः तुला आपणिकः तुल्या
तुलया तुलया
तुलया तुलया तुल्यति
तोलयति
महिला तोलयति महिला छुरिका महिला छुरिकया कर्तयति परिचारकः कुञ्चिका परिचारकः कुञ्चिकया तालकम् उद्घाटयति
उद्घाटयति उद्घाटयति
परिचारकः अर्थः वन हु सर्व्स फूड
सेवकः इति ओके द्विचक्रिका द्विचक्रिकया द्विचक्रिकया तुला तुलया तुलया छुरिका छुरिकया छुरिकया अस्तु अतः दीर्घं यत् दीर्घमस्ति अत्र तुला किल तत्र दीर्घस्वरः अपगच्छति तुलया छुरिकया कुञ्चिकया एवं रीत्या भवन्ति रूपाणि अत्र ईकारान्त स्त्रीलिङ्गपदानि अधुना पश्यन्तु अत्र छुरिका आकारान्त स्त्रीलिङ्गपदं छुरिकया कुञ्चिका कुञ्चिकया कुञ्चिकया अधुना स्त्रीलिङ्गपदानि पद्मजा भगिनि
बालिका सम्मार्जनी सो इट हेज the dot and the ma next to it so it is sammarjani like a stress
satyam sammarjani satyam
balika sammarjanya marjayati so this is ending theme
tritiya bhakti
words ending with ikaranta will become anya okay no sammarjani becomes sammarjanya. Okay. Mm. Adhyapika adhyapika lekhani adhyapika lekhanya likati. Sauchikaha suchi sauchikaha suchya vastram sivyati.
Pashyatu siv sivyati prayaha itaheva agatam tat padamapi siv.
మహిళా ద్రోణి మహిళా ద్రోణ్యా జలం ఆనయతి.
అత్ర కించిత్ అవధానం ఆవశ్యకం. సర్వే కృపయా శృణ్వంతు. నదీ ఇది పదం అస్తి కిల, నదీ ఇది ఈకారాంత స్త్రీలింగ పదం కిల. అస్య బహువచనం కిమస్తి?
నద్యా.
నదే
నద్యౌ
నద్యౌ
బహువచనం.
నద్యః నద్యః.
వండర్ఫుల్. నద్యః ఓకే. బహువచనం అస్తి నద్యః. దిస్ ఇస్ ప్లూరల్. ఏవం లిఖామి అత్ర? బహువచనం అస్తి. షష్ఠీ విభక్తి ఏకవచనం కిం?
నద్యాః
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 నద్యాః. అత్ర విసర్గ అస్తి పశ్యంతు. షష్ఠీ విభక్తి ఏకవచనం. తృతీయ విభక్తి ఏకవచనం కిం అస్తి? నద్యా. భేదం అవగచ్చంతు సర్వే. నద్యః బహువచనం, నద్యాః షష్టి ఏకవచనం. కేవలం నద్య వితౌట్ ద విసర్గ తృతీయ విభక్తి ఏకవచనం. యు అండర్స్టాండ్ ది డిఫరెన్స్ రైట్?
గివ్ ఎన్ ఎగ్జాంపుల్ దేర్.
yes yes.
సో నద్య. సో
అస్తు నద్యః. నద్యః నామ కిమస్తి? నద్యాః ప్రవహంతి. నద్యః ప్రవహంతి.
ప్రవహంతి.
నద్యాః నామ గంగా. నద్యాః
షష్ఠీ విభక్తి రైట్?
సత్యం షష్ఠీ విభక్తి. అస్తు కశ్చన పురుషః నద్యా గచ్చతి.
ఓకే ఓకే. నదికి. ఓకే.
నో నా నదికి. నదిని ఉపయోగిస్తూ అంటే నదిలో ప్రవహి వెళ్తున్నాడు బేసికలీ.
ఓకే.
ట్రావెలింగ్ యూజింగ్. సో అత్ర కిం భవతి సామాన్యతయా ఆంగ్ల భాషయా కిం వదామా? అహం ఐఎమ్ గోయింగ్ ఇన్ దట్ రోడ్ నామ అహం మార్గే గచ్చామి ఇది వదామహ ఇలా. సే యు ఆర్ గోయింగ్ ఆన్ సే దేర్స్ లైక్ హైవే I-5 సంథింగ్. అహం I-5 మార్గే గచ్చామి. If you translate that from English, right? You're saying you're going on I-5. Iti bhavati. Kintu tatra trutiya avashyaki. Because you are using that way to go. Upakaranam asti. Ichyasvat margena gachyami iti vakyam. Never marge gachyami. Tathaiva aham karyanena gachyami. Vimanena gachyami. Tatra vimanam, yanam, etani sarvani api upakaranani santi. You are using them. They are helping you to go. You will never say aham vimane gachami. No. In English it is okay. Sanskrit na tata navaktavyam.
Lo, that means in Telugu like in vimanan lo veltunanu. Yeah.
Satyam. Telugu bhasha api tathaiva. Kintu sanskrite na tatha sanskrite tatha nasti. Okay. Vimanena gachami, margena gachami, yanena gachami, evam ritya. Pashtam va?
Mahodaya, I saw a sentence. It was like Maya Karyalayam Gachami or something like that.
Maya Karyalayah Gataha iti vakyam syat. Tatra kimasti kimiti karmani prayoga hasti anantam charchayama. Karmani prayoga nama passive voice iti. Okay. అనంతరం చర్చయామ. దట్ ఇస్ పాసివ్ వాయిస్ అధునా మాస్తు.
సో కెన్ యూ ప్లీజ్ సే అ సెంటెన్స్ లైక్ ఫర్ విత్ అ డిఫరెంట్ వర్డ్ దట్స్ నాట్ నది బట్ ఎండింగ్ ఇన్ దట్ సేమ్ ఎండింగ్ ఫర్ ద తృతీయ విభక్తి ప్లీజ్.
పార్వత్య పశ్యతు, ద్రోణి పశ్యతు. ద్రోణి అస్తి కిల అత్ర. సూచి అస్తి.
ద్రోణ్య. ఓకే.
సూచి బహువచనం కిమ్ అస్తి? 1.3 సూచ్యః.
Sorry, what is Suchi? It's a needle?
Needle. No, Sudhi.
Needle.
Yeah. Suyi.
Suchyaha. Astu? Prathama bahuvachanam. Shashti ekvachanam kim bhavati? Suchyaha. Tritiya ekvachanam kim bhavati?
Suchya.
Suchya.
Tavadeva.
Thank you. Yeah.
Spashtam kila?
Spashtam. Yes.
Asta anantara charcha. Nataraj Mahode. Kurupaya.
Okay. Rama Uttishta. Atava Hastav Darshaya. Vam Kena Hastena Likasi Arya Aham Anena Hastena Likami Sa Dakshina Hastaha Anyaha Vama Hastaha Yekasmin Haste Pancha Ankulyaha Santi
Angulyaha
Angulya Apancha Angulyaha Santi Dyoho
Dvayoho
okay Dvayoho Hastyoho
Hastayoho
Dasha Oh sorry Hastayoho Dasha Angulyaha Santi Panav Vividaha Rake
Rekhaha
Okay, sorry, Reka. Oh, okay. Reka Vidante. Vidyante.
Vidyante nama Santi iti artaha.
Oh, okay.
Vidyante nama Santi iti artaha. Anena ayam. Ayam. Pumlinga padam. Ayam. Tritiya bhakti ekavachanam. Anena. Ayam anena. Kaha. Prashnaha. Kila. Kaha iti prashnaha. Pumlinga padam. Kena. Eshaha. Etena saha tena astu
anena hastena means
etena hastena likhami iti artha anena hastena
okay I'm writing with this hand
using this hand
using with
it is like tena anena
satyam tavadeva ayam anena saha tena Eshaha etena. Tavadeva. Spashtam va? Valli bhagini?
Astu mahode.
Atra.
Why is it just sa over there? Sa dakshina hastaha.
Sandhikarana visargalopaha. Sandhikarana visargalopaha.
Oh.
Sandhikarana. So, Kausalya Bhagini, Anantam?
Sorry, when you say that what the sentence means is, he is right-handed, everyone else is left-handed, is it? Anyaha means?
No. Saha Dakshina Hastaha. That is right-hand. Yeah. Not he.
Oh.
That's it.
Saha Dakshina Hastaha. Okay.
Okay, if I say, Saha Syutaha, Kahardaha?
This is a bag.
No. Saha.
Sorry. Saha, oh, that is back.
Tatheva saha dakshina hastaha. That is right hand, tavadeva.
Oh, okay. Okay, anyaha here is other, is it? That other. Is right hand, Satcham. Other is left hand. Oh, okay.
Spashtam va?
Spashtam.
The next few things I don't understand the meaning. Ekasmin haste pancha angulyaha santi.
Okay.
Five fingers.
Ekasmin haste. Ekasmin haste. Ekaha ekasmin.
One hand. In one hand, we have five fingers.
Satyam.
Okay.
Dvayoho hastayoho dasha angulyaha santi.
Combining both hands.
Both hands.
Panihi.
Ikaranta srilinga.
Satyam. Anguli. Ikaranta srilinga padam. Anguli asti. Angulyaha santi.
Santi.
Mahodaya, we say ekasmin, so we won't say dvayo hasmin or something like that.
Ah, see, you're too smart. Okay. Ekaha, ekasmin, ekavachane asti. Okay. Dvayoho, dvivachane asti atra. Dvayoho, dvivachane asti. Ataha. Hastaha, hastayoho. Hastaha, saptami, saptami ekavachane kim bhavati hasta padasya? Hasta pratipadikasya?
Hasti.
Hasti. Saptami ekavacham. Hasti. Saptami bahuvachana bhavati. Hastayoho.
Hastayo.
So dvayoho hastayoho. In two hands. It just not hastayoho ita. Dvayoho hastayoho. Dasha angulyaha santi. Okay. Rekhaha vidyante nama santi iti eva artha.
What is Panao? Sorry if I missed that meaning.
Panao, Pani, they call Pani, right? I mean like
Pani,
Pani.
Pani, Pani Grahanam, Pani.
Panikam.
Saptami Ekavachanam, Panao. Pani hi ikaranta padamasti. Panao.
So, it's another name for Hastam?
No. Hastam.
No, it's a forehand.
Oh. Right?
On the forehand, like you have a lot of Rekas. You know?
Ma'am. Just
Panao means forehand, is it? Sorry, I'm getting still confused.
Pani hi. Where would you have rekas? Let me put it that way.
Okay, in the palm.
That's
the
it.
Palm.
Okay. Pani means palm. Okay.
Hina pani.
Kara talaha. Should we say like that?
No. Kara talaha is, you're clapping. That's it. No.
Oh. Is Veena Pani the one who has Veena in her palm?
Am.
Pani hi Veenam Vasrilinga.
Kimiti?
Pani hi Srilingam Vasrilinga. Is it like Hari or Madhi?
Oh, Lingam Pruchati va. Pani hi. Pani hi Pumlinga Padameva.
Okay, so this is what that's why it is called in marriage. We say it's a pani grahanam, is it? Giving the girl's hand in boy's
not
hand.
Not giving, holding.
Holding. Okay, holding. Yeah.
Grahati grahanam kila holding.
Okay. Grahanam. Yeah. And what is vividaha artha kaha?
Vividaha.
Difference, right?
No, various. Vividaha.
Various. Okay.
Various.
Vividaha. Okay.
Vividhaha bahuvachane tatra tavadeva. Rekha akaranta strilinga padam. Bahuvachanamasti rekhaha vividaha visheshana padam. Ityasma vividhaha san putra panau.
Okay.
Ikaranta pumlinga padam panihi. Kausalya bhagini adhuna?
Upavishatu. Krishnaha uttishthatu. Krishna tvam hastabhyam netre sprisha. Vayam netrabhyam kim kurmaha. Vayam netrabhyam pasyamaha. Hastabhyam karmani kurmaha.
Karmani
kurmaha. Anyesham praninam dve netre vidyete astau nastaha.
Vidyete namastaha iti eva artaha. Astu. Atra hastabhyam netrabhyam tatra dvivachane asti. Hastaha hastabhyam netram netrabhyam. Angushtabhyam namaha, tarjanibhyam namaha. Evam richa bhavanti kila.
Okay, so hastena in dvivachanam becomes hastabhyam, is it?
Hastabhyam. Tatra namaha iti ukte tatra shashti, kimiti, chaturdhi bhakti asti bhavatu nama. Hintu tatra hastabhyam, netrabhyam. Atra sarvatra api, trutiya vibhakti, dvivachanam. एतानि सर्वाणि अपि 3 2 वयं नेत्राभ्यां पश्यामः नेत्राभ्यां वयं पादाभ्यां चलामः पादाभ्यां वयं हस्ताभ्यां कार्याणि कुर्मः कर्माणि नाम कार्याणि एव वयं हस्ताभ्यां कर्माणि अथवा कार्याणि कुर्मः स्पष्टं वा
स्पष्टं
पद्मजा
लास्ट वन अन्येषां प्राणिनां
अन्येषां अन्यः अन्येषां अन्यः अन्यस्य अन्ययोः अन्येषां षष्ठी विभक्तिः बहुवचनमस्ति अन्येषां अन्येषां प्राणिनां द्वे नेत्रे स्तः हस्तौ न स्तः
They don't have hands or?
No, they don't have two hands. They have two eyes, but not two hands. Iti.
Okay.
Anyesham praninam, mama hastaha, mama padaha, evam ritya kala. Anyesham praninam, dve netre staha, kintu dvau hastau na staha.
Okay.
So what not is the context of...
two hands.
Yeah, go ahead.
I was just going to finish that. So they have two eyes, but not two hands.
Not all. Yeah.
Okay, I couldn't still get the context of Anyesham Praninam. Do we need to include the Anyesham there? What does it mean? Yetesham means these, right?
Other beings iti artaha. Yetesham means these. Anyaha means other. Bahuvachane Anyesham. Others. Padmaja Bhagini.
So I'm just trying to understand what is the context of the second paragraph. So somebody is it just like you must have taken this text from some
Satyam.
Classic, is it?
No, ma'am. Classic iti nasti, pustakate va sakshat. Tatra kim vadati saha Ramaha upavishato, Krishnaha uttishtato. Okay, upaveshanam, utthanam. Atra dve kriyestaha. How do you stand or sit? Using your legs or using your hands. Kimapi bhavati kila. Okay. You're using hands and legs to do your karma. Right?
Okay.
So padabhyam. You use your padabhyam. Tritiya bhakti avashyaki atra. That is what they're trying to say. So if you want to do something, you need your hands. So hastabhyam karmani kurmaha. You use your hands. Because he's standing and sitting, you know, you're doing all these. You have to use your body parts, right? That you're just saying that, you know, you use tritiya. That's it. They're just telling you how to use tritiya. Tava deva. Tasmat kimapi nasti.
Okay. Thank you. Yeah.
Okay. The second sentence there. So sprusha is basically feel, touch or something. So
Satyam.
Hastabhyam, I understand. What does netre doing here?
Tell me. What does netre do here?
Tvam hastabhyam netre sprusha.
Dvitiya, right? Dvitiya. Touch the eyes.
Wonderful. Netram, netre, netrani.
Okay.
Dvitiya vibhakti dvivachanam.
Okay.
Wonderful. Anyani? Asto. Tarihi idam to agrima saptahe kurmaha. Idam sarvam. Tasmat param shloka patanam api karaniyam kila nyunatnyam. Ekaha shloka pataniyam bhavati. Ekanvasham. अस्तु नलोपाख्यानम् अस्तु महाभारते नलोपाख्यानम् अस्ति किल ततः స్వీకృతౌ శ్లోకౌ ఓకే అలోపాఖ్యానాత్ స్వీకృతౌ ఇమౌ ద్వౌ శ్లోకౌ అస్తు కిమితి సుభాషిణి భగిని
అస్తు మహోదయ
పఠతు
ఆసీద్ రాజా నళో నామ వీరసేన సుతో బలి ఉపపన్నో గుణౌరిష్టౌ
రూపవాన్
గుణైరిష్టై రూపవాన్ శ్వకోవిదః
రూపవాన్ శ్వకోవిదః
రూపవాన్ శ్వకోవిదః
రూపవాన్ శ్వకోవిదః తత్ పర్యాప్తం పర్యాప్తం అధునా అస్తు ఆదౌ పదచ్ఛేదః పదచ్ఛేదం కుర్వంతు
ఆసిత్ రాజా నళో నామ
ఓ వావ్ అస్తు ఆసిత్ క్షమ్యతాం
ఆసిత్
రాజా
నళో
నలః
నలః నలః నామ వీరసేనః సుతః బలిః
వీరసేనః నో నో సు వీరసేన సుతః బలి
బలిః
నో బలిః నా బలి
బలి ఉపపన్నో ఉపపన్నో
ఉపపన్నః
ఉపపన్నః
పశతు నలో నలో నలః ఉపపన్నో ఉపపన్నః
గుణరిష్టః
గుణైః ఇష్టైః గుణైః ఇష్టైః
రూపవాన్
అశ్వకోవిదః
అశ్వకోవిదః
పద్మజ భగిని
I have to identify the verb nalaha nama veerasena sutaha balihi apannanaha gunaihi ishtaihi rupavan it's the past tense word in at the end ashwako no not that I have asit asit is the verb
wonderful asit is the verb asti asit tavadeva kila okay just because there is an akara it doesn't make it a past tense verb okay for example if you have a name akshita akhila it's not past tense it's just a noun because just because it starts with akara it doesn't you know make it a verb in past tense okay aasit aasit kaha aasit రాజానలః ఆసీత్ రాజానలః ఆసీత్ రాజ నలః నామ రాజా ఆసీత్ ఓకే నలః నామ రాజా ఆసీత్ కః సః నలః వీరసేన సుతః వీరసేన ఇది కశ్చన రాజా అస్తి తస్య సుతః తస్య పుత్రః అతః సః వీరసేన సుతః అస్తి వీరసేనస్య పుత్రః వీరసేన సుతః అస్తి వీరసేన సుతః ఇతి కశ్చన వీరసేనః ఇతి కశ్చన రాజా తస్య సుతః తస్య పుత్రః నలః నామ రాజా ఆసీత్ పునః సః కీదృశః అస్తి కథం భూతః అస్తి బలి అస్తి బలి నామ బలవాన్ అస్తి సః బలి ఇదం తత్ర నకారాంత పుంలింగ పదమస్తి ఇత్యస్మాత్ బలిన్ ఇది ప్రాతిపదికం ప్రథమ విభక్త ఏకవచనే బలీ భవతి అస్తు బలీ వీరసేన సుతః నలః రాజా ఆసీత్ స్పష్టం వా Okay, if you understood, just say yes. Otherwise, just say no.
the not the last one, sorry. Bali, Bali.
Bali. Bali means Balavan. It's atra Bali yasti ikara hasti. It is not a stealing apadam. Stealing apadam nasti. Bali is the pratipadikam. Prathama bhakti ekavachana rupam asti Bali. Bali means one who has bala. Means who is strong. He is Balavan. He is Bali. Tavadeva.
If this was not like some classic, and if that word Bali, it could have been a name, a female name, right? E ending with Ikara. I thought Veera Sena Sutaha, Bali means they're saying the name of the person who is the son of Veera Sena. But now I understand it's not a name, but if it was a female name, it could have been confused.
Sure, that's why we are doing all this, right?
Yeah.
Okay, don't worry. Bali. Clear so far? Shankar Mohade, spashtamasti va?
Yes, yeah. Yes.
Upapannaha, upapannaha nama filled with, possessed with. So, atra dvitiya vakye kriyapadam kutrapi nasti. Okay, there's only one kriyapadam here. So, dvitiya vakye kutrapi kriyapadam nasti. So, all these, you know, have their anvaya in asit only. Okay, upapannaha, prathama vibhakti ekavachanam. Okay, rupavan.
Upapannaha and sampanna both mean the same thing, is it?
Ah, sampannaha, satyam.
Okay.
Ashvakovidaha, prathama vibhakti ekavachanam. Saha, ashvakovidaha asti, asit. Raja nalaha, ashvakovidaha asit. Ashvakovidaha namakahardaha, ashveshu kovidaha, ashvakovidaha. No, he had this skill to, you know, he had this skill to deal with horses. You know, he can ride them well, or, you know, manage them well, whatever. Ashvakovidaha. Ashveshu kovidaha, ashvakovidaha. Ashvaha, horse. Kovidaha, expert. Ashveshu kovidaha, ashvakovidaha. Okay. Saha rupavan api asti. Rupavan. Like Bhavan, Rupavan, Saha Rupavan asti. Rupavan namaka hardaha? You know,
like a handsome, good looking?
Yeah, very good looking, handsome person. Asti.
Okay.
Upapannaha, filled with, possessed with. What? Gunaihi, by gunaihi, Tritiya Vibhakti Bahuvachanam, gunaha gunaihi. He's filled by, athava, qualities. What kind of qualities? Ishtaihi gunai, ishtaha, good. All the gunai is that all the desirable iti artaha. Ishtaha nama desired. All the desired qualities, he's filled with all those qualities. Trutiya vakti bahuvachanatra api. So, Raja nalaha asit. Saha veera senasya sutaha. Saha bali api. Saha ishtaihi gunaihi upapannaha. Asit. Saha rupavan asit. Saha ashvakovidaha api asit. Any better?
Yeah. So the kovidaha you can join with anything else.
1 minute. Ashvakovidaha, shastra kovidaha, tantra kovidaha.
Okay, thank you.
So that's the whole point in doing these kavyas, right? Why are we doing all this? This way you can create your own words. Ashveshu kovidaha, ashvakovidaha. Shastreshu kovidaha, shastra kovidaha. Tantreshu kovidaha, tantra kovidaha.
Just that kovidaha reminds me of coronavirus somehow.
That's very unfortunate. Sorry. Okay, kovidaha. What is it? Ganita kovidaha. Yeah, he's good at mathematics. Good. Rupavan. Like Bhavan. Bhavan padasya bahuvachana kim asti?
Bhavantaha.
Bhavantaha. Rupavan padasya?
Bhavantaha.
Rupavantaha. That's it. Tavadeva. Rupavantaha. Rupavan asit. Rupavantaha asan. Spashtamasti va? ಇಷ್ಟೈಹಿ ಗುಣೈಹಿ ಉಪಪನ್ನಃ ರಾವಣಃ ದುರ್ಗುಣೈಹಿ ಉಪಪನ್ನಃ ರಾವಣಃ ದುರ್ಗುಣೈಹಿ ಉಪಪನ್ನಃ ರಾಮಃ ಇಷ್ಟೈಹಿ ಗುಣೈಹಿ ಉಪಪನ್ನಃ ಸುಗುಣೈಹಿ ರಾಮಃ ಸುಗುಣೈಹಿ ಉಪಪನ್ನಃ ತಥಾ ವಕ್ತುಂ ಶಕ್ಯತೆ.
It makes it so easy once it is all separated into these words, but I have like I really admire how they are doing that separation so easily, like
it takes practice, you'll get there. You just started this, right? Just give yourself like 1 year time, you'll be there, don't worry.
Oh good, thank you, I have time.
Yeah, just give yourself like 1 year time, you'll do well, don't worry, but you just have to practice it, that's it. Okay, does everyone have time for like 5 minutes? I want to like do one more shloka as well. If you have time, otherwise you can do it next week, that's fine.
Yes, I have time.
Astu. Okay. Tarhi idam kaha karoti? Ranga mahodaya?
Atishtan manujendranam.
Murgni
Deva Patir Patiryatha Deva Patiryatha Upariyupari Sarvesham Aditya Iva Tejasa
Aditya Iva Tejasa, wonderful. Okay. Atra, ado padani. Padachedaha.
Ati ustanma.
No.
Adishtanam.
Atishtat. Manujendranam. Atishtat. Manujendranam. Sandhikaranena. Atishtan manujendranam iti bhavati. Tu plus matra nakaraha bhavati. Atishtat manujendranam. Atishtan manujendranam iti bhavati. Asti. Atishtan manujendranam anantram. Murdhni. Murdhni.
Deva.
Deva Patihi Yata.
Wonderful. Deva Patihi.
Yata.
Who's going to say that? Sorry.
Upa.
Who said Deva. Yata? Who just said Yata?
Subhashini.
Okay.
Subhashini.
Okay. Oh, yeah. Thank you. Okay. Anantaram.
Upari Pari.
Upari.
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 Upari. Upari. Because Upari Upari. Ekamayu Padamatra. Upari upari. Ekame padam, but just so that you know the Sunday, I put just two different words, but it's just one word. Upari upari. Okay. Upari upari.
Sarvaha yesham aditya.
Sarvesham
aditya.
Aditya.
Iva tejasa. Okay. Asto. Atha kriyapadam kutra.
Atishthat.
Wonderful. Atishthat. Iti kriyapadam. Kaha atishthat?
Devapati. Aditya.
Nana. Saheva.
Manu. Manu.
Manu Jendra.
Nalaha eva atishthat. Katham atishthat saha?
Devapati.
Yatha devapatihi. Yatha devapatihi. Murdhani tishtati. Murdhani nama kahardaha? Anyone?
Head.
Head. Head iti artaha. Yatha murdhani tishtati devapatihi. Tatha. Head manujendra nama. It's the kimiti. Manujendra nama. Above all kings iti artaha. Manujendra nama. Okay. Above all kings. On the head of all kings. Nama kahardaha. He is above all kings iti artaha. Tava deva. Yatha devapatihi tatha ayam మనుజేంద్రాణం మూర్ధని అతిష్ఠత్. దేవపతిర్ నామ ఇంద్రః. అంటే దేవానాం పతిః దేవపతిః ఇంద్రః అస్తి. యథా దేవపతిః, యథా దేవపతిః, హి సెడ్ ఆఫ్ ఆల్ గాడ్స్ రైట్, తథైవ అయం నలః అపి మనుజేంద్రాణం మూర్ధని హి ఇస్ అబౌ ఆల్ కింగ్స్ అతిష్ఠత్. గుడ్. మూర్ధని అత్ర సప్తమిభక్తి ఏకవచనం, సప్తమిభక్తి ఏకవచనం అస్తి. మూర్ధని సప్తమిభక్తి ఏకవచనం, మనుజేంద్రాణం షష్ఠీ విభక్తి బహువచనం. యథా దేవపతి తథైవ నలః మనుజేంద్రాణం మూర్ధని అతిష్ఠత్.
I'm confused with the way you wrote that word near 7.1, the Murdhani. Isn't it like right now it looks like that the R is on top of the Na and not on the Dh?
That is how it is going to be. If you look
so
at
I can't
one.
Write I okay. can't write the Mu.
Okay, so you want it right like this. Okay, Murdha, something like this. Just like what you see here. Is that what you're saying?
Sorry. Without the Na, Vottu there, can I put the Na next to the Ardha? Like Murdhani, like three different...
You're saying like this.
Murdha.
Murdhani.
Yeah, and then, yeah, it's wrong to write like that.
Definitely, yes.
Oh.
You can't write like this, no.
You have to join the Dha and Na together.
Yes.
When we, even if we join, like,
If you join, like, what will it be? It will be something like this. It will be like the Murdhan, Murdhna. This will become Murdhna, Murdhani. That's it.
Yeah, but like visually to me, that arna, it's coming on the na and not on the way I look, like when I see it. But you can't say the arna
sound.
No,
you have to think of it. This is dhna. This is dhna here already. This will become ardhna. Rudhna, ardhna.
Murdhna, okay. Okay, we'll try.
This murdhani is how it became 7.1.
That is nakaranta padam. We'll get into that later. But murdhani, that's it. Like bhavat bhavati, rajas na, rahas rahasi, murdhan murdhani. Halanta padam, that's it. Yatha devapatihi, tatha ayam nalaha, manujendrana murdhani, atishthat. Okay?
Okay, I am confused on 6.3 also. Manujendranam. So, what is Gajanam. The 6.1 for that? Is it Manujendrasya? Is it?
Manujendrasya.
Ekavachanam Manujendrasya. Okay. Drivachanam will be Manujen.
Manujendrayoho Drivachanam.
Manujendrayoho. Manujendranam. Okay.
మనుజ ఇంద్ర, మనుజ నామ బాన్ టు మను నామ పీపుల్, మనుజ ఇంద్ర కింగ్ ఆఫ్ పీపుల్, మనుజేంద్రాణం అబౌ కింగ్స్. మనుజ ఇస్ పీపుల్, ఇస్ మ్యాన్. మనుజస్య ఇంద్ర కింగ్ ఆఫ్ మెన్, మనుజేంద్ర నామ హీస్ అ కింగ్. మనుజేంద్రాణం బహువచనం.
Okay,
good so far.
Yeah.
Adana sarvesham iti 6.3 sarve jananti eva adityah. Okay, tejasa sakaranta padamasti. Tejas sakaranta padam. Tejas nama kahardha. Tejasu iti vadamah kila. Tejas nama kahardha kopi.
Something like
Look, basically.
His brilliance. Okay. So his virtue tatha.
Okay.
By his virtue, by his brilliance, okay, tejasa, saha, just like Aditya, Aditya iva, sarvesha upari upari atishthat. Yatha adityasya tejaha asti, tathaiva nalasyapi tejaha. Tena tejasa saha upari upari. He was above everyone. He stood above everyone like a sun. Iti artha. We said, what did we say here? Saha yatha devapati tata manujendrana murdhani atishtat. Okay, he was above all kings for sure. At the same time, because how do I mean he's when we say he was above all kings, like when how above? Like a son who is far above, right? There was no one above him. That is what they're actually trying to convey here. Okay. By his virtue or by his brilliance or whatever. Saha Aditya Iva Sarvesham Upari Upari Atishthat. Clear?
Okay. Second one is very challenging than the first one. First one we are able to make it. Second
so,
one is
Sarvesham, who are they referring to? Sarvesham?
Above everyone. He's above just he is beyond kings and everyone. Hey, what's your questions now? What are your questions?
What is the difference between? Go ahead. Did someone else have a question?
There are two sentences in this sloka. Nalaha.
Ah, satyam.
Manujendrana modhani atishtat yatha aditya not yatha aditya eva tejasa sarvesham upari upari atishtat
nalaha manujendrana murdhani atishtat tathaiva saha tejasa api aditya eva sarvesham upari upari atishtat.
What is the difference between Eva and Eva?
Eva. Eva means similar to Aditya Eva, just like Aditya. Iti artha. Eva okay. Means only him. Iti artha.
Okay.
Any question? Is it clear? Natarajan Mahodaya?
It's clear. Yeah, you all understand.
Upari. Why is it repeated? That's what I'm asking.
Upari is a vipsa is just to emphasize. That's it. Again and again you say that, right? So when you say again, you can just say one again, right? Why do you have to say two? Why do you have to say two? You know, you just want to emphasize that. That vipsa is just to give more importance. That's it. You say very, very happy. You can say very happy.
Okay.
Why do you say very, very happy? Yeah. That's it. Spashtam va? Natarajan Mahodaya, is this clear now?
Yeah, it is. Yeah.
Okay. So, Pashyatatra. Tejas Sakaranta Padamasti Sakaranta Napum Sakalinga Padam Tejasa Rupam. Shritya Bhakti question. I know that we haven't done Sakaranta Padam, but that's fine. If you do kavyas like this, you will learn one word at a time. And by the time we complete this kavya, you will know all the words. Tejas is tejasa. Murdhan. Nakaranta padamasti. Murdhni. Murdhan becomes murdhni. Saptami bhakti ekavachanam. Okay.
Yep.
మూర్ధన్ తత్ర నకారాంత పుంలింగ పదమస్తి మూర్ధన్ ఇది మూర్ధని అస్సు తర్హి అత్ర అద్య అత్ర సమాపయామ ప్రశ్నాః సంతి చేత్ అహమత్ర భవామి పృచ్ఛంతు నో చేత్ సమాపయామ
ఐ హాడ్ అ క్విక్ క్వశ్చన్ స్లైడ్